ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थ तु प्रभाकरः पञ्चमं तु सहस्रांशुः षष्ठं त्रैलोक्यलोचनः सप्तमं हरिदश्वश्च अष्टमं च विभावशुः नवं दिनकरं प्रोक्तो दशमं द्वादशात्मकः एकादशं त्रयोमूर्तिः द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थ तु प्रभाकरः पञ्चमं तु सहस्रांशुः षष्ठं त्रैलोक्यलोचनः सप्तमं हरिदश्वश्च अष्टमं च विभावशुः नवं दिनकरं प्रोक्तो दशमं द्वादशात्मकः एकादशं त्रयोमूर्तिः द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थ तु प्रभाकरः पञ्चमं तु सहस्रांशुः षष्ठं त्रैलोक्यलोचनः सप्तमं हरिदश्वश्च अष्टमं च विभावशुः नवं दिनकरं प्रोक्तो दशमं द्वादशात्मकः एकादशं त्रयोमूर्तिः द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थ तु प्रभाकरः पञ्चमं तु सहस्रांशुः षष्ठं त्रैलोक्यलोचनः सप्तमं हरिदश्वश्च अष्टमं च विभावशुः नवं दिनकरं प्रोक्तो दशमं द्वादशात्मकः एकादशं त्रयोमूर्तिः द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः, तृतीयं भास्करः, प्रोक्तं चतुर्थ तु प्रभाकरः, पञ्चमं तु सहस्रांशुः, षष्ठं त्रैलोक्यलोचनः, सप्तमं हरिदश्वश्च, अष्टमं च विभावशुः, नवं दिनकरं प्रोक्तो दशमं द्वादशात्मकः, एकादशं त्रयोमूर्तिः, द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम, द्वितीयं तु दिवाकरः, तृतीयं भास्करः, प्रोक्तं चतुर्थ तु प्रभाकरः, पञ्चमं तु सहस्रांशुः, षष्ठं त्रैलोक्यलोचनः, सप्तमं हरिदश्वश्च, अष्टमं च विभावशुः, नवं दिनकरं प्रोक्तो दशमं द्वादशात्मकः, एकादशं त्रयोमूर्तिः, द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम, द्वितीयं तु दिवाकरः, तृतीयं भास्करः, प्रोक्तं चतुर्थ तु प्रभाकरः, पञ्चमं तु सहस्रांशुः, षष्ठं त्रैलोक्यलोचनः, सप्तमं हरिदश्वश्च, अष्टमं च विभावशुः, नवं दिनकरं प्रोक्तो दशमं द्वादशात्मकः, एकादशं त्रयोमूर्तिः, द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम, द्वितीयं तु दिवाकरः, तृतीयं भास्करः, प्रोक्तं चतुर्थ तु प्रभाकरः, पञ्चमं तु सहस्रांशुः, षष्ठं त्रैलोक्यलोचनः, सप्तमं हरिदश्वश्च, अष्टमं च विभावशुः, नवं दिनकरं प्रोक्तो दशमं द्वादशात्मकः, एकादशं त्रयोमूर्तिः, द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम, द्वितीयं तु दिवाकरः, तृतीयं भास्करः, प्रोक्तं चतुर्थ तु प्रभाकरः, पञ्चमं तु सहस्रांशुः, षष्ठं त्रैलोक्यलोचनः सप्तमं हरिदश्वश्च अष्टमं च विभावशुः नवम दिनकरं प्रोक्तो दशमं द्वादशात्मकः एकादशं त्रयोमूर्तिः द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थ तु प्रभाकरः पञ्चमं तु सहस्रांशुः षष्ठं त्रैलोक्यलोचनः सप्तमं हरिदश्वश्च अष्टमं च विभावशुः नवम दिनकरं प्रोक्तो दशमं द्वादशात्मकः एकादशं त्रयोमूर्तिः द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थ तु प्रभाकरः पञ्चमं तु सहस्रांशुः षष्ठं त्रैलोक्यलोचनः सप्तमं हरिदश्वश्च अष्टमं च विभावशुः नवम दिनकरं प्रोक्तो दशमं द्वादशात्मकः एकादशं त्रयोमूर्तिः द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थ तु प्रभाकरः पञ्चमं तु सहस्रांशुः षष्ठं त्रैलोक्यलोचनः सप्तमं हरिदश्वश्च अष्टमं च विभावशुः नवम दिनकरं प्रोक्तो दशमं द्वादशात्मकः एकादशं त्रयोमूर्तिः द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थ तु प्रभाकरः पञ्चमं तु सहस्रांशुः षष्ठं त्रैलोक्यलोचनः सप्तमं हरिदश्वश्च अष्टमं च विभावशुः नवम दिनकरं प्रोक्तो दशमं द्वादशात्मकः एकादशं त्रयो मूर्तिः द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम, द्वितीयं तु दिवाकरः, तृतीयं भास्करः, प्रोक्तं चतुर्थ तु प्रभाकरः, पञ्चमं तु सहस्रांशुः, षष्ठं त्रैलोक्यलोचनः, सप्तमं हरिदश्वश्च, अष्टमं च विभावशुः, नवम दिनकरं प्रोक्तो दशमं द्वादशात्मकः, एकादशं त्रयो मूर्तिः द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम, द्वितीयं तु दिवाकरः, तृतीयं भास्करः, प्रोक्तं चतुर्थ तु प्रभाकरः, पञ्चमं तु सहस्रांशुः, षष्ठं त्रैलोक्यलोचनः, सप्तमं हरिदश्वश्च, अष्टमं च विभावशुः, नवं दिनकरं प्रोक्तो दशमं द्वादशात्मकः, एकादशं त्रयो मूर्तिः द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम, द्वितीयं तु दिवाकरः, तृतीयं भास्करः, प्रोक्तं चतुर्थ तु प्रभाकरः, पञ्चमं तु सहस्रांशुः, षष्ठं त्रैलोक्यलोचनः, सप्तमं हरिदश्वश्च, अष्टमं च विभावशुः, नवं दिनकरं प्रोक्तो दशमं द्वादशात्मकः, एकादशं त्रयो मूर्तिः द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम, द्वितीयं तु दिवाकरः, तृतीयं भास्करः, प्रोक्तं चतुर्थ तु प्रभाकरः, पञ्चमं तु सहस्रांशुः, षष्ठं त्रैलोक्यलोचनः, सप्तमं हरिदश्वश्च, अष्टमं च विभावशुः, नवं दिनकरं प्रोक्तो दशमं द्वादशात्मकः, एकादशं त्रयो मूर्तिः द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थ तु प्रभाकरः पञ्चमं तु सहस्रांशुः षष्ठं त्रैलोक्यलोचनः सप्तमं हरिदश्वश्च अष्टमं च विभावशुः नवम दिनकरं प्रोक्तो दशमं द्वादशात्मकः एकादशं त्रयो मूर्तिः द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थ तु प्रभाकरः पञ्चमं तु सहस्रांशुः षष्ठं त्रैलोक्यलोचनः सप्तमं हरिदश्वश्च अष्टमं च विभावशुः नवम दिनकरं प्रोक्तो दशमं द्वादशात्मकः एकादशं त्रयो मूर्तिः द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थ तु प्रभाकरः पञ्चमं तु सहस्रांशुः षष्ठं त्रैलोक्यलोचनः सप्तमं हरिदश्वश्च अष्टमं च विभावशुः नवम दिनकरं प्रोक्तो दशमं द्वादशात्मकः एकादशं त्रयो मूर्तिः द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्। ॐ सुं सूर्याय नमः। आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थ तु प्रभाकरः पञ्चमं तु सहस्रांशुः षष्ठं त्रैलोक्यलोचनः सप्तमं हरिदश्वश्च अष्टमं च विभावशुः नवम दिनकरं प्रोक्तो दशमं द्वादशात्मकः एकादशं त्रयो मूर्तिः द्वादशं सूर्य एव च इति सूर्यद्वादश नाम स्तोत्रं सम्पूर्णम्।